अथ चतुर्थः सर्गः। प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानुषिः चकारचरितम् कृत्स्नम् विचित्रपदमर्थवत्। चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानुषिः तथा सर्गशतान् पञ्चषट्काण्डानि तथोत्तरम् कृत्वा तु तन्महाप्राज्ञः स भविष्यम् सहोत्तरम् चिन्तयामास कोऽन्वेतत्प्रयुञ्जीयादिति प्रभुः। तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः अगृह्णीताम् ततः पादौ मुनिवेशौ कुशीलवौ कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ भ्रातरौ स्वरसम्पन्नौ ददर्शाश्रमवासिनौ। स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ वेदोपब्रह्मणार्थाय तावग्राहयत प्रभुः। काव्यम् रामायणम् कृत्स्नम् सीतायाश्चरितम् महत् पौलस्त्यवधमित्येवम् चकारचरितव्रतः। पाठ्ये गेये च मधुरम् प्रमाणैस्त्रिभिरन्वितम् जातिभिः सप्तभिर्युक्तम् तन्त्रीलयसमन्वितम् रसैः शृङ्गारकरुणहास्यरौद्रभयानकैः वीरादिभिरसैर्युक्तम् काव्यमेतदगायताम् तौ तु गान्धर्वतत्त्वज्ञौ स्थानमूर्च्छनकोविदौ भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविवरूपिणौ रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ बिम्बादिवोत्थितौ बिम्बौ रामदेहात्तथा परौ तौ राजपुत्रौ कार्त्स्येन धर्म्यमाख्यानमुत्तमम् वाचो विधेयम् तत्सर्वम् कृत्वा काव्यमनिन्दितौ ऋषीणाम् च द्विजातीनाम् साधूनाम् च समागमे यथोपदेशम् तत्त्वज्ञौ जगतुः सुसमाहितौ महात्मानौ महाभागौ सर्वलक्षणलक्षितौ तौ कदाचित् समेतानाम् ऋषीणाम् भावितात्मनाम् मध्ये सभम् समीपस्थाविदम् काव्यमगायताम् तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुले क्षणाः साधु साध्विति तावूचुः परम् विस्मयमागताः। ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ अहो गीतस्य माधुर्यम् श्लोकानाम् च विशेषतः चिरनिर्वृत्तमप्येतत् प्रत्यक्षमिव दर्शितम् प्रविश्यताबभौ सुष्ठु तथा भावमगायता सहितौ मधुरम् रक्तम् सम्पन्नम् स्वरसम्पदा एवम् प्रशस्यमानौ तौ तपःश्लाघ्यैर्महर्षिभिः संरक्ततरमत्यर्थम् मधुरम् तावगायता। प्रीतः कश्चिन्मुनिस्ताभ्याम् संस्थितः कलशम् ददौ प्रसन्नो वल्कलम् कश्चिद्ददौ ताभ्याम् महायशाः। अन्यः कृष्णाजनमदाद्यज्ञसूत्रम् तथा परः कश्चित्कमण्डलम् प्रादान्मौञ्जीमन्यो महामुनिः वृषीमन्यस्तदा प्रादात्कौपीनमपरो मुनिः ताभ्याम् ददौ तदा हृष्टः कुठारमपरो मुनिः काषायमपरो वस्त्रम् चीरमन्यो ददौ मुनिः जटाबन्धनमन्यस्तु काष्ठरज्जुम् मुदान्वितः। यज्ञभाण्डमृषिः कश्चित् काष्ठभारम् तथा परः औदुम्बरीम् वृषीमन्यस्वस्ति केचित्तदा वदन् आयुष्यमपरे प्राहुर्मुदा तत्र महर्षयः ददुश्चैवम् वरान् सर्वे मुनयः सत्यवादिनः। आश्चर्यमिदमाख्यानम् मुनिना सम्प्रकीर्तितम् परम् कवीनामाधारम् समाप्तम् च यथाक्रमम् अभिगीतमिदम् गीतम् सर्वगीतिषु कोविदौ आयुष्यम् पुष्टिजननम् सर्वश्रुतिमनोहरम् प्रशस्यमानौ सर्वत्र कदाचित्तत्र गायकौ रथ्यासुराजमार्गेषु ददर्श भरताग्रजः स्ववेश्मचानीयततो भ्रातरौ सकुशीलवौ पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः उपोपविष्टैः सचिवैर्भ्रातृभिश्च समन्वितः दृष्ट्वा तु रूपसम्पन्नौ विनीतौ भ्रातराबुभौ उवाच लक्ष्मणम् रामः शत्रुघ्नम् भरतम् तथा श्रूयतामेतदाख्यानमनयोर्देववर्चसोः विचित्रार्थपदम् सम्यग् गायकौ समचोदयत् तौ चापि मधुरम् रक्तम् स्वचित्तायतनिःस्वनम् तन्त्रीलयवदत्यर्थम् विश्रुतार्थमगायत ह्लादयत् सर्वगात्राणि मनांसि हृदयानि च श्रोत्राश्रयसुखम् गेयम् तद्बभौ जनसंसदि इमौ मुनीपार्थिवलक्षणान्वितौ कुशीलवौ चैव महातपस्विनौ ममापि तद्भूतिकरम् प्रचक्षते महानुभावम् चरितम् निबोधता ततस्तुतौ रामवचः प्रचोदितावगायताम् मार्गविधानसम्पदा स चापि रामः परिषद्गतः शनैर्बुभूषयासक्तमना बभूव इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्थः सर्गः।